धारापरा मरुतो धृष्णो जसो मृगान् भीमास्तमेभिरत्सिलाः अग्नयो नसु सुजानारे जेषिणो बृन्दमन्तो अपकारृण्वत यावो नस्त्रिभिस्तिदयम् दशादिनाव्या अभ्रया नद्योदयम् द पृष्टयाः रुद्रो यद्वा मरुतो रुक्मवक्षसो वृषा च निकृष्णा शुक्रबूधानि उक्षन्ते अस्मागत्याङ्गि वाजिषो रथस्य कर्णैः स्तुरयन्त आशुभिः हिरण्यसि प्रामरुतोदमिद्वतः प्रक्षञ्याधमृषादिभिः समन्यवः वृक्षेता विश्वा भुवनावक्षिरे मित्राय वासधमाजीरदानवः वृषादस्वासो अनभभ्रराधसर्जासो न भजुनेषु धूर्षदाः इन्धम् वधेनुभिरत्सदोधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः आहम् दासो न स्वसाराणि गन्तनमधोर्मदाय मरुतः समन्यवः आरो ब्रह्माणि मरुतः समन्यवो नरान्नसंसः सवनानि गन्तन अश्वामिव विप्रतधेनुमोधनिकर्ता धियम् चरित्रे वाजपेशसम् तन्नो दातमरुतो वाजिनम् रस आपानम् ब्रह्म चितयद्दिवे दिवे इळम् स्तोतृभ्यो वृजनेषु कारवे सनिम् मेधामरिष्टम् दुष्टहंसः यद्युञ्जते मरुतो रुक्मवक्षसो स्वान्द्रसेषु भगा सुदानवः धेनुम् न विश्वे सुदारेषु पिन्वते जनाय रातः विषे महीविषम् यो नो मरुतो मृगताधिपत्यो रिभुर्दधेव सुभो रक्षतारिषः वर्धय गतपूषा चक्रियाभितमवरुद्रासतो हन्तनावधाः श्रीकान्दद्वो मरुतो यामजेगिदेवस्याजदूधरव्यापयो दुः यद्वाजेरवमानः सरुद्रियास्त्रितम् जरायजुरतामदाभ्याः न्नो महो मरुतये भजाम्नो विष्णोः रेणस्य प्रभृतेः वामहे हिरण्यवर्णान्गगुहान् यतस्रूजो ब्रह्मण्यन्तः संस्यम् राधाजीमहे तेजसग्वा प्रथमो यज्ञमो हिरेतेनो हिन्वन्दोषसो ज्योष्टिषु उषालामीरुणैरपोर्नुते महो ज्योतिषासु जतागोऽर्नसा ते क्षोणीभिरुणेभिर्नाञ्जभिरुद्रारुतस्य सदनेषु वावृदुः निमेघमाना अत्येन पाजसादुश्चन्द्रम् वर्णम् दधिरे सुते ससम् यानो महिपरो समूतजमुपघेधेना नमसा गृणीमसि त्रिसो न यान् पञ्चहोत्रेण भिष्टजाभवत्तदपराञ्चक्रियावसे यया रथ्यम् पारयथात्यम् भोजयानितो भुञ्जथा वन्दितारम् अर्वाची सामरुतो जाव भूतिरोषुभाश्रेव सुभतिर्जीगासु।